Book 2
21
21
21
Cuộc nói chuyện nhỏ 2
Gặp sắp 2
Gặp sắp 2
Bạn từ đâu đến?
Aap kahan se aaye hain?
आप कहां से आई हैं?
Từ Basel.
Basel से.
Basel से.
Basel ở bên Thụy Sĩ.
Basel Switzerland में स्थित है.
Basel Switzerland में स्थित है.
Tôi xin giới thiệu với bạn ông Müller.
मैं आपको श्री मुल्लर से मिलाना चाहता हूँ।
मैं आपको श्री म्यूलर से मिलाना चाहती हूँ।
Ông ấy là người ngoại quốc.
वे विदेशी हैं।
वे विदेशी हैं।
Ông ấy nói được nhiều ngôn ngữ.
वे कई भाषाएं बोल सकते हैं।
वे कई भाषाएं बोल सकते हैं।
Bạn tới đây lần đầu à?
Kya aap yahan pehli baar aaye hain?
Kya aap yahan pehli baar aaye hain?
Không, tôi năm ngoái đã ở đây rồi.
Ji nahi, main yahan pichle saal aaya tha.
Ji nahi, main yahan pichle saal aayi thi.
Nhưng chỉ có một tuần thôi.
Lekin केवल एक हफ्ते के लिए
लेकिन केवल एक हफ्ते के लिए
Bạn có thích ở đây không?
क्या आपको यहाँ अच्छा लगता है?
क्या आपको यहाँ अच्छा लगता है?
Rất thích. Mọi người rất là dễ mến.
बहुत अच्छा. लोग बहुत अच्छे हैं.
बहुत अच्छा. लोग बहुत अच्छे हैं।
Và tôi cũng thích quang cảnh ở đây.
मुझे यहाँ का नजारा भी अच्छा लगता है।
मुझे यहाँ का नजारा भी अच्छा लगता है।
Bạn làm nghề gì vậy?
आप क्या करते हैं?
आप क्या करते हैं?
Tôi là phiên dịch.
मैं एक अनुवादक हूँ।
मैं एक अनुवादक हूँ।
Tôi dịch sách.
मैं पुस्तकों का अनुवाद करता हूँ।
मैं पुस्तकों का अनुवाद करती हूँ।
Bạn ở đây một mình à?
क्या आप यहाँ अकेले आए हैं?
क्या आप यहाँ अकेले आई हैं?
Không, vợ tôi cũng ở đây.
Ji nahi, meri patni bhi yahan hai.
Ji nahi, mere pati bhi yahan hai.
Và đó là hai đứa con tôi.
Aur mere dono bacche wahan hai.
Aur mere dono bacche wahan hai.